सचराचरम् मम देहे गुणाकेश यच्चान्यत् द्रष्टुमिच्छसि न तु
Ooh.
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः
साचिन् द्रोणं च भीष्मं च
नामैकादशोऽध्यायः।